ప్రజాపతిగుం హవామహే కవిం కవీనాముపమశ్రవస్తమం జ్యేష్ఠరాజం బ్రహ్మణాం బ్రహ్మణస్పత ఆన శృణ్వన్ నోతిభిః సేదసాదనం ప్రణో దేవీ సరస్వతీ వాజినీవతీ ధీనామవిత్రయవతు గణేశాయ నమః సరస్వత్యై నమః శ్రీగురుభ్యో నమః హరిః ఓం. ఓం నమో భగవతే రుద్రాయ. ఓం నమస్తే రుద్రమన్యవ ఉతోత ఇషవే నమః. నమస్తే అస్తు ధన్వనే బాహుభ్యాముతతే నమః. యాత ఇషు శివతమా శివం బభూవతే ధనుః. శివాశరవ్యాయాతవతయానో రుద్రమృడయా. యాతే రుద్ర శివా తనూర ఘోరా పాపకాశిని తయానస్తను వాశల్తమయా గిరిశంతాభిచాకసి. యామిషుం గిరిశంతహస్తే బిభర్ష్యస్తవే. శివాం గిరిత్రతాం కురు మాహి గుంసి పురుషం జగత్. శివే నవచసా త్వా గిరి సాక్షా వదామసి. యతా నః సర్వమిజ్జగత యక్ష్మగుం సుమనా అసత్. అధ్యవోచద దివక్త ప్రథమో దైవ్యోభిషక్. అయేజశ్చ సర్వాన్ జంబయన్ సర్వాస్తయాతు ధాన్యః. అసౌ యస్తామ్రో అరుణ ఉత బభ్రస్సు మంగళః. యే చేమాగుం రుద్రా అభితో దిక్షుశ్రుతా సహస్రశో వైశాగుం ఏడ ఈమహే. అసవ్యో వసర్పతి నీలగ్రీవో విలోహితః. ఉతైనం గోపా అదృశన్నదృశన్నుదహార్యః. ఉతైనం విశ్వా భూతాని సదృష్టో మృడయాతినః. నమో అస్తు నీలగ్రీవాయ సహస్రాక్షాయ మీడుషే. అథో యే అస్య సత్వానోహం తేభ్యో కరన్నమః. ప్రముంచ ధన్వనస్త్వముభయోరార్తియోర్జాం. యాశ్చ తే హస్త ఇషవ పరాత భగవో వప. అవతత్య ధనుస్త్వగుం సహస్రాక్షశతేషు ధే. నిశీర్య శల్యానాముగా శివోన సుమనాభవ. విజ్యం ధను కపర్దినో విశల్యో పానవాగుం ఉత. అనేషన్నస్యేషవ ఆపురస్య నిషంగతిః. యాతే తిర్మీఢుష్టమహస్తే బభూవతే ధనుః. తయాస్మాన్ విశ్వతస్త్వమ యక్ష్మయా పరిభుజా. నమస్తే అస్త్వాయుధాయ నాతతాయ ధృష్టవే. ఉభాభ్యాముతతే నమో బాహుభ్యాం తవ ధన్వనే. పరితే ధన్వనో హేతిరస్మాన్ వృణక్తు విశ్వతః. అథో య ఇషుధిస్తవారి అస్మన్నిధే హితం. నమస్తే అస్తు భగవన్ విశ్వేశ్వరాయ మహాదేవాయ త్రయంబకాయ త్రిపురాంతకాయ త్రికాగ్నికాలాయ కాళాగ్నిరుద్రాయ నీలకంఠాయ మృత్యుంజయాయ సర్వేశ్వరాయ సదాశివాయ శ్రీమన్మహాదేవాయ నమః. నమో హిరణ్యవాహవే సేనాన్యే దిశాం చ పతయే. నమో నమో వృక్షేభ్యో हरिकेशेभ्यः पशूनाम् पतये नमो नमः सस्मिञ्जराय त्विषीमते पथीनाम् पतये नमो नमो बभ्रुषाय विव्याधिने नानाम् पतये नमो नमो हरिकेशायोपवीतिने पुष्टानाम् पतये नमो नमो भवस्य हेत्यै जगताम् पतये नमो नमो रुद्राय ततावीने क्षेत्रानाम् पतये नमो नमः सूताया हन्त्याय यवनानाम् पतये नमो नमो रोहिताय तपतये वृक्षानाम् पतये नमो नमो मन्त्रिणे वाणिजाय कक्षानाम् पतये नमो नमो भुवन्तये वारिवस्कृतायौषधीनाम् पतये नमो नम उच्चैर्घोषाया क्रन्दयते पत्तीनाम् पतये नमो नम कृष्णवीताय धावते सत्त्वनाम् पतये नमः नमः सहमानाय निव्याधिना व्याधिनीनाम् पतये नमो नमः ककुभाय निषङ्गिने सेनानाम् पतये नमो नमो निषङ्गिन इषु धिमते तस्कराणाम् पतये नमो नमो वञ्चते परिवञ्चते सायूनाम् पतये नमो नमो निचेरवे परिचरायारण्यानाम् पतये नमो नमः सृकाविभ्यो जिघागुम् सद्भ्यो मुष्टताम् पतये नमो नमो सिमद्भ्यो नक्तम् चरद्य प्रकृन्तानाम् पतये नमो नम उष्णीषिणे गिरिचराय कुलुञ्चानाम् पतये नमो नम इषु मद्भ्यो धन्वाविभ्यश्च वो नमो नम आतन्वानेभ्य प्रतिदधानेभ्यश्च वो नमो नम आयच्छद्भ्यो विसृजभ्यश्च वो नमो नमोऽस्यभ्यो विद्यभ्यश्च वो नमो नम आसीनेभ्य शयानेभ्यश्च वो नमो नम स्वपद्भ्यो जाग्रभ्यश्च वो नमो नमस्तिष्ठद्भ्यो धावद्भ्यश्च वो नमो नम सभाभ्यः सभापतिभ्यश्च वो नमो नमो अश्वेभ्यो अश्वपतिभ्यश्च वो नमः नम आव्याधिनेभ्यो विविध्यन्तेभ्यश्च वो नमो नम उगणाभ्यस्तृगुम् हतिभ्यश्च वो नमो नमो गृत्सेभ्यो गृत्सपतिभ्यश्च वो नमो नमो व्रातेभ्यो व्रातपतिभ्यश्च वो नमो नमो गणेभ्यो गणपतिभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो महद्भ्यः क्षुल्लकेभ्यश्च वो नमो नमो रथिभ्यो रथेभ्यश्च वो नमो नमो रथेभ्यो रथपतिभ्यश्च वो नमो नम सेनाभ्यः सेनानिभ्यश्च वो नमो नमः शत्रुभ्यः सङ्ग्रहीतृभ्यश्च वो नमो नमस्तक्षभ्यो रथकारेभ्यश्च वो नमो नमः कुलालेभ्यः कर्मारेभ्यश्च वो नमो नमः पुञ्जिष्टेभ्यो निषादेभ्यश्च वो नमो नम इषुकृद्भ्यो धन्वकृद्भ्यश्च वो नमो नमो मृगयोभ्यश्वनिभ्यश्च वो नमो नम स्वभ्यश्वपतिभ्यश्च वो नमः नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च नमः कपर्दिने च व्युक्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशाय च शिपिविष्टाय च नमो मेढुष्टमाय चेशुमते च नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो वृद्धाय च संवृद्धने च नमो अग्र्याय च प्रथमाय च नमः आशवे चाजिराय च नमः शीघ्र्याय च शीभ्याय च नमः ऊर्म्याय चावस्वन्याय च नमः श्रोतस्याय च द्वेप्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय च परजाय च नमो मध्यमाय च प्रगल्भाय च नमो जघन्याय च बुद्धियाय च नमः सोऽभ्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नमः उर्वर्याय च खल्याय च नमः श्लोक्याय चावसान्याय च नमो वन्याय च कक्ष्याय च नमः श्रवाय च प्रतिश्रवाय च नमः आशुषेणाय चाशुरथाय च नमः शूराय चावभिन्दते च नमो वर्मिने च वरोथिने च नमो बिल्मिने च कवचिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय च हनन्याय च नमो धृष्णवे च प्रमशाय च नमो दूताय च प्रहिताय च नमो निषङ्गिने चेषु धिमते च नमस्तीक्ष्णेशवे चायुधिने च नमः स्वायुधाय च सुधन्वने च नमः श्रुत्याय च पथ्याय च नमः काट्याय च नीप्याय च नमः सोद्याय च सरस्याय च नमो नाद्याय च वैशन्ताय च नमः कोप्याय च वट्याय च नमो वर्ष्याय च वर्ष्याय च नमो मेघ्याय च विद्युत्याय च नमः ईद्र्याय च तप्याय च नमो वात्याय च रेश्म्याय च नमो वास्तव्याय च वास्तुपाय च ॐ हर 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 ॐ नमः सोमाय च रुद्राय च नमस्ताम्राय चारुणाय च नमः शङ्गाय च पशुपतये च नमः उग्राय च भीमाय च नमो अग्रे वधाय च दूरे वधाय च नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय नमः शम्भवे च मयोभवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च नमस्तीर्थ्याय च कुल्याय च नमः पार्याय च भार्याय च नमः प्रतरणाय चोत्तरणाय च नमः आतार्याय च लाद्याय च नमः शष्प्याय च भेन्याय च नमः सिकत्याय च प्रवाह्याय च नमः इरिण्याय च प्रपथ्याय च नमः किगुंशिलाय च क्षयणाय च नमः कपर्दिने च पुलस्तये च नमो गोष्ठ्याय च गृह्याय च नमस्तल्प्याय च गेह्याय च नमः काट्याय च गह्वरेष्ठाय च नमो हृदय्याय च निवेश्प्याय च नमः पागुंसव्याय च रजस्याय च नमः शुष्क्याय च हरित्याय च नमो लोप्याय चोलप्याय च नमः ऊर्व्याय च सूर्म्याय च नमः पर्ण्याय च पर्णशद्याय च नमो पगुरमाणाय च विघ्नते च नमः आधिरते च ప్రఖ్యదతే చ నమో వక్కిరికేభ్యో దేవానాగుం హృదయేభ్యో నమో విక్షీణకేభ్యో నమో విరిచిన్వత్కేభ్యో నమ ఆనిర్హతేభ్యో నమ ఆమీవత్కేభ్యః ద్రావే అంధసస్పతే దరిద్రన్నీలలోహితా ఏషాం పురుషాణామేషాం పశూనాం మాభిర్మా రోమో ఏషాం కించనామమత్ యాతే రుద్ర శివా తనో శివా విశ్వాః భేషజే శివా రుద్రస్య భేషజే తయానో మృగజీవసే ఇమాగుం రుద్రాయ తవసే కపర్దినే క్షయద్వీరాయ ప్రభరామహే మతిం యథానశ్చమసద్విపదే చతుష్పదే విశ్వం పుష్టం గ్రామే అస్మిన్ననాతురం మృడానో రుద్రో తనో మయస్కృధి క్షయద్వీరాయ నమసా విధేమతే యచ్ఛం చయోశ్చ మనురాయజే పితా తదశ్యామ తవ రుద్ర ప్రణీతౌ మానో మహాంతముత మానో అర్భకం మాన ఉక్షంతముత మాన ఉక్షితం మానో వధే పితరం మోత మాతరం ప్రియామానస్తనువో రుద్రరీరిషః మానస్తోకేతన ఏ మాన ఆయుషి మానో ఘోషు మానో అశ్వేషురీరిషః వీరాన్ మానో రుద్రభామితో వధీర్ అవిష్మంతో నమసా విధేమతే ఆరాతే గోఘ్న ఉత పూరుషగ్నే క్షయద్వీరాయ సుమ్ నమస్మేతే అస్తు రక్షాచనో అధి చ దేవ బ్రూహ్యదాచన శర్మ యచ్చ త్రివర్హాః సుహి శ్రుతం గర్త సదయ్యువానం మృగన్న భీమముపహత్నుముగ్రం మృడాచరిత్రే రుద్రస్తవానో అన్యంతే అస్మన్నివ పంతు సేనా పరిణో రుద్రస్య హేతిర్వృఢక్తు పరిద్వేషస్య దుర్మతిరథాయో అవస్థిరా మఘవద్భ్యస్తనుష్మీరస్తోకాయతనయాయ మృడయా నీఢుష్టమశివతమ శివో నః సుమనా భవ పరమే వృక్ష ఆయుధం నిధాయ కృత్తిం వసాన ఆచర పినాకం విప్రదాగహే విగిరిద విలోహిత నమస్తే అస్తు భగవః యాస్తే సహస్రగుం హేతయోన్యమస్మన్నివ పంతు తాః సహస్రాని సహస్రదా బాహువోస్తవ హేతయః తాసామీశానో భగవః పరాచీనా ముఖాగ్రధి సహస్రాని సహస్రశో యే రుద్రా అధిభూమ్యాం తేషాగుం సహస్రయోజనే వదన్వాని తన్మసే అస్మిన్ మహత్యర్ణవేంతరిక్షే భవా అరి నీలగ్రీవా శ్రీకంఠా శర్వా అదః క్షమాచరాః నీలగ్రీవా శ్రీకంఠా దివగుం రుద్రా ఉపశ్రితాః యే వృక్షేషు సస్మింజరా నీలగ్రీవా విలోహితాః యే భూతానామధిపతయో విశిఖాసః కపర్దినః యే అన్నేషు వివిధ్యంతి పాత్రేషు పిబతో జనాన్ యే పథాం పతిరక్షయ ఐరభృదాయ వ్యుధః యే తీర్థాని ప్రచరంతి శృగావంతో నిషంగినః య ఏతావంతశ్చ భూయాగుంశ్చ దిశో రుద్రావితస్థిరే తేషాగుం సహస్రయోజనే వధన్వాని తన్మసే నమో రుద్రేభ్యో యే పృథివ్యాం యేంతరిక్షే యే దివి యేషామన్నం వాతో వర్షమిషవస్తేభ్యో దశ ప్రాచీర్దశ దక్షిణా దశ ప్రదేశీర్దశోదేశీర్దశోర్ద్వాస్తేభ్యో namaste no mrayantu teyam dvishvo yachano dvishitam bhojam bhedadhari trembakam yajamahe sugandhim pushtivardhanam urvarukamiva vandhanan mrityor mukshiyamamrtat yo rudra agnau yo apsuya oshadishu yo rudra vishva bhuvana divesha tasmai rudraya namo astu yete sahasramayutam pasha mrityo martyaya hantave tan yajnasya bhayaya sarvanavaya jamahe mrityave swaha pranānāṁ granthirasi rudrama viśāntakaḥ tenānenāpyāyasva namo rudrāya viṣṇave mṛtyurme pāhi tamostu hi aśvaśasudhanvāyo viśvasya kṣayati bheṣajasya yakṣvā mahesau manasāya rudram namo bhirdevamasuram duvasya ayam me hasto bhagavān ayam me bhagavattaraha ayam me viśvabhesha joyagum shivā vimarshanaha om shanti 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 Vishnu sajosha seva vardhantu mahangiraha dhyumnairvaje viragatam vajascha me prasavascha me prayatischa me pratitischa me dhetischa me kratuscha me swarascha me shlokascha me shravascha me shrutischa me jyotischa me suvascha me prāṇascha me apāṇascha me vyānascha me suscha me cittam ca mahādhītam ca me vākscha me manascha me cakṣuscha me śrotram ca me dakṣascha me balam ca mahōjascha me sahascha mahāyuscha me jarācha mahātmācha me tanuscha me sharma ca me varma ca me ngari ca me sthari ca me parogumshi ca me sharirani ca me jaishyam ca maadhipatyam ca me manyuscha me bhamascha me mascha me mbascha me jema ca me mahima ca me varima ca me prathima ca me vashma ca me draghuya ca me vriddham ca me vriddhischa me satyam ca me shraddha ca me jagaccha me dhanam ca me vashascha me dvishischa me kreeda ca me modascha me jatam ca me janishyamanam ca me soktam ca me sukrutam ca me vittam ca me vedyam ca me bhutam ca me bhavishyat ca me sukam ca me supatam ca maruddham ca maruddhischa me kruptam ca me kruptischa me matischa me sumatischa me shancha me mayascha me priyancha me nukamascha me kamascha me saumanasascha me bhadram ca me shreyascha me vasyascha me yashascha me bhagascha me ravinam ca me yanta ca me dhatta ca me kshemascha me dhritischa me vishvam ca me mahascha me samvikcha me gyatram ca me suscha me prasuscha me Siram ca me layascha marutam ca me mrutam ca me yakshvam ca me namayascha me jivatuscha me dirghayutvam ca me namitram ca me bhayam ca me sugam ca me shayanam ca me sosha ca me sudinam ca me ऊर्च्छमे सोनृता च मे पयश्च मे दशश्च मे कृतं च मे मधु च मे सग्दिश्च मे सपेतिश्च मे कृषिश्च मे वृष्टिश्च मे जैत्रं च म औद्भिद्यं च मे रयिश्च मे रायश्च मे पुष्टं च मे पुष्टिश्च मे विभु च मे प्रभु च मे बहु च मे भूयश्च मे पूर्णं च मे पूर्णतरं च मे क्षितिश्च मे कूयवाश्च मेनं च मे शुच्च मे व्रीहयश्च मे यवाश्च मे माशाश्च मे तिलाश्च मे मुद्गाश्च मे खल्वाश्च मे गोधूमाश्च मे मसुराश्च मे प्रियङ्गवश्च मे नवश्च मे श्यामाकाश्च मे निवाराश्च मे अश्मा च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे सिकताश्च मे वनस्पतयश्च मे हिरण्यं च मे यश्च मे शेषं च मे त्रपुश्च मे श्यामं च मे लोहं च मे अग्निश्च म आपश्च मे वेणुधश्च म ओषधयश्च मे कृष्टपच्यं च मे कृष्टपच्यं च मे ग्राम्याश्च मे पशवारण्याश्च यज्ञेन कल्पन्तां वित्तं च मे वित्तिश्च मे भूतं च मे भूतिश्च मे वसु च मे वसतिश्च मे कर्म च मे शक्तिश्च मे अर्थश्च म एमश्च म इतिश्च मे गतिश्च मे अग्निश्च म इन्द्रश्च मे सोमश्च म इन्द्रश्च मे सविता च म इन्द्रश्च मे सरस्वती च म इन्द्रश्च मे पोषा च म इन्द्रश्च मे बृहस्पतिश्च म इन्द्रश्च मे मित्रश्च म इन्द्रश्च मे वरुणश्च म इन्द्रश्च मे त्वष्टा च म इन्द्रश्च मे धाता च म इन्द्रश्च मे विष्णुश्च म इन्द्रश्च मे श्विनौ च म इन्द्रश्च मे मरुतश्च म इन्द्रश्च मे विश्वे च मे देवा इन्द्रश्च मे पृथिवी च म इन्द्रश्च मेऽन्तरिक्षं च म इन्द्रश्च मे जौश्च म इन्द्रश्च मे दिशश्च म इन्द्रश्च मे मूर्धा च म इन्द्रश्च मे प्रजापतिश्च म इन्द्रश्च मे अगुंशुश्च मे रश्मिश्च मे दाभ्यश्च मे त्रिपतिश्च म उपागुंशुश्च मे अन्तर्यामश्च म ऐन्द्रवायवश्च मे मैत्रावरुणश्च म अश्विनश्च मे प्रतिप्रस्थानश्च मे शुक्रश्च मे मन्थे च म आग्रयणश्च मे वैश्वदेवश्च मे ध्रुवश्च मे वैश्वानरश्च मरुतुग्रहाश्च मे तिग्राह्याश्च म ऐन्द्राग्नश्च मे वैश्वदेवश्च मे मरुत्वतीयाश्च मे माहेन्द्रश्च म आदित्यश्च मे सावित्रश्च मे सारस्वतश्च मे पौष्णश्च मे पार्थिवतश्च मे हार्योजनश्च मे विद्मश्च मे बर्हिश्च मे वेदिश्च मे धृष्णीयाश्च मे सृजश्च मे चमसाश्च मे ग्रावाणश्च मे स्वरवश्च म उपरवाश्च मे धिषवणे च मे द्रोणकलशश्च मे वायव्यानि च मे पूतवृक्ष म आथवनीयश्च म आग्नेधं च मे हविर्धानं च मे गृहाश्च मे सदश्च मे पुरोडाशाश्च मे पजताश्च मे वृदश्च मे स्वदाकारश्च मे Agnischa me, karmascha me, kascha me, suryascha me, pranascha me, shvame, dascha me, prithivicha me, ditischa me, ditischa me, jyoscha me, shakvari rangula yotishascha me, yagnena kalpantam rikcha me, samacha me, somascha me, yajoscha me, Dikshacha me tapascha marutuscha me pratamcha me horatrayo rushtya prahatra jantarecha me yagnena kalpetam garbhascha me vatsascha me trayavischa me trayavicha me Dityavacha me, Dityauhecha me, Panchavischa me, Panchavicha me, Trivatsascha me, Trivatsacha me, Turyavacha me, Turyauhecha me, Pashtavacha me, Pashtauhecha ma, Ukshacha me, Vashacha ma, Rushabhascha me, Vehacha me, Nadvancha me, Dhenuscha ma, Ayur Yajnena Kalpatam, Prano Yajnena Kalpatam, Apano Yajnena Kalpatam, Vyano Yajnena Kalpatam, Chakshur Yajnena Kalpatam, Gushrotram Yajnena Kalpatam, Mano Yajnena Kalpatam, Vak Yajnena Yajnena kalpatam, Atma yajnena kalpatam, Yajnyo yajnena kalpatam. Ekacha me, Tisrascha me, Panchacha me, Saptacha me, Navacha ma, Ekadashacha me, Trayodashacha me, Panchadashacha me, Saptadashacha me, Navadashacha ma, Ekavigumsadischa me, Trayo vigum sadischa me, pancha vigum sadischa me, sapta vigum sadischa me, nava vigum sadischa ma, ekatrigum satcha me, trayastrigum satcha me, chatasrascha me, stauccha me, dvadashacha me, shodashacha me, vigum sadischa me, chatur vigum sadischa me, shtavigum sadischa me, Dvatrigum satcha me, shatrigum satcha me, chatvarigum satcha me, chatuschatvarigum satcha me, shtachatvarigum satcha me, vajascha prasavascha, pijascha, kratuscha, suvascha, murdhacha, vyasniyasthyantyayanasthyantyascha, bhauvanascha, bhuvanascha, bhivadischa, Ida devahur manur yagyanir brahaspati rukta madani sabum tishad vishve devasu uttavacha prithivi matar mamahigum sir madhumanishye madhujanishye madhuvakshyami madhuvadishyami madhumatim devibhyo vacha mudyasagum shushrushenyam manushye vyastam madeva avantu shobhaye pitarunu madantu om shanti 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 om tachayorabrinimahe Gatam yajnaya, gatam yajnapatraye, daive swastirastunaha, swastirmanushe bhyaha, urdhvam jigatu bheshajam, shanno astudvipade, shanchatushpade, om shanti 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 sahasrashirusha purushah sahasrakshas sahasrapat sabhumim vishvato vritva atyatishthat dashangulam purusha evedagum sarvam yat bhutam yat cha bhavyam utamratatvasyeshanah yadannena tirohate etavanasya mahima ato jayagascha purushah padosya vishva bhutani tripadasyamritam divi tripadurdhvagudait purushah padosyeha bhavat punah tato vishvam yakramat sashananashane abhi tasmat virada jayata virajo adhipurushah sajato atyarichyata paschat bhumi mato purah yat purushena havisha deva yajnyamatanvata vasanto asya sidajyam grishma yitva sharadhavi saptasya sanparidhayah trisapta samidakritah deva yajnyam tanvanah abhadran purusham pashum tan yajnyam varishi praukshanna purusham jatamagratah tena deva ayajanta sadhyarishayaschaye tasmat yajnyat sarvahutah sambhritam prishadajyam pashugustarvaschakre vayavyana aranyan gramyaschaye tasmat yajnyat sarvahutah ruchasamani jagnire chandagumsi jagnire tasmat yajustasmad ajayata tasmat ashva ajayanta yeke cho bhayadatah gavoha jagnire tasmat tasmat jata ajavayah yat purusham vyadaduh kaditha vyakalpayan mukham kimasya kau bahu kavuru pada uchete brahmano sya mukhamasit bahu rajanyakritah uru tadasya yadvaishyah padbhyagum shudra ajayata chandrama manaso jatah chakshu suryo ajayata mukhadindrascha pranadvayurajayata nabhya asidantariksham sheshnaudyau samavartata padbhyam bhumirdishashrotrat tatha lokagum akalpayan vedahametam purusham mahantam adityavarnam tamasastu pare sarvani rupani vichitya dhirah namani kritva bhivadhanyagaste dhata purastadyamudajahara chakra pravidvan pradishaschatasrah tamevam vidvan amrita iha bhavati nanya pantha ayanaya vidyate yagdena yagyavaya janta devah tani dharmani prathamanyasan tehanakam mahimanasachante yatra purve sadhya santi devah adhyasambhodha prithivyairasacha vishwakarmana samavartatadhe tasyatvashta vidadadrupamete तत्पुरुषस्य विश्वमाजानमग्रे वेदाहमेतं पुरुषं महान्तम् आदित्यवर्णं तमसः परस्तात् तमेवं विद्वानमृत इह भवति नान्यः पन्था विद्यते यनाय प्रजापतिश्चरति गर्भे अन्तः अजायमानो बहुधा विजायते तस्य धीरा परिजानन्ति योनिम् मरीचीनाम् पदमिच्छन्ति वेदसः यो देवेभ्य आतपति यो देवानाम् पुरोहितः पूर्वो यो देवेभ्यो जातः नमो रुचाय ब्राह्मये रुचम् ब्राह्मम् जनयन्तः देवा अग्रे तदद्ब्रुवन् यस्त्वैवम् ब्राह्मणो विद्यात् तस्य देवा असन्वशे क्रीष्टते लक्ष्मीश्वपत्यौ अहोरात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनौ व्यात्तम् इष्टम् मनिषाणा अमुम् मनिषाणा सर्वम् मनिषाणा तच्छय्यो नावृणीमहे गातं यज्ञाय गातं यज्ञपतये दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वं जिगातु भेषजम् शन्नो अस्तु द्विपदे शञ्चतुष्पदे ॐ शान्ति शान्ति शान्तिः ॐ सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः ब्रह्मविदाप्नोति परम् तदेशाभ्युक्ता सत्यम् ज्ञानमनन्तम् ब्रह्म यो वेदनिहितम् गुहायाम् परमे व्योमन् सोऽश्नुते सर्वान् कामान् सः ब्रह्मणा विपश्चितेति तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः आकाशाद्वायुः वायोरग्निः अग्नेरापः अभ्यपृथिवी पृथिव्या ओषधयः ओषधीभ्योऽन्नम् अन्नात् पुरुषः स वा एष पुरुषो नरसमयः तस्येदमेव शिरः अयम् दक्षिणपक्षः अयमुत्तरपक्षः अयमात्मा इदम् पुच्छम् प्रतिष्ठा तदप्येष श्लोको भवति अन्नाद्वै प्रजा प्रजायन्ते याकाश्च पृथिवी विश्रिताः अधो अन्नेनैव जीवन्ति अथैरदपियन्त्यन्ततः अन्नगुम्भिभूतानाम् ज्येष्ठम् तस्मात् सर्वौषधमुच्यते सर्वम् वैते नवाप्नुवन्ति येनम् ब्रह्मोपासते अन्नगुम्भिभूतानाम् ज्येष्ठम् तस्मात् सर्वौषधमुच्यते अन्नाद्भूतानि जायन्ते जातान्यन्नेन वर्धन्ते अध्यवेति च भूतानि तस्मादनन्तदुच्यत इति तस्माद्वा एतस्मादन्नरसमयात् अन्योन्तर आत्मा प्राणमयः तेनैष पूर्णः स वा एष पुरुषविध एव तस्य पुरुषविधताम् अन्वयम् पुरुषविधः तस्य प्राण एव शिरः व्यानो दक्षिणपक्षः अपान उत्तरपक्षः आकाश आत्मा पृथिवी पुच्छम् प्रतिष्ठा तदप्येष श्लोको भवति प्राणम् देवा अनुप्राणन्ति मनुष्या पशवश्च ये प्राणो हि भूतानामायुः तस्मात् सर्वायुषमुच्यते सर्वमेव त आयुर्यन्ते ये प्राणम् ब्रह्मोपासते प्राणो हि भूतानामायुः तस्मात् सर्वायुषमुच्यत इति तस्यैष एव शारीर आत्मा यः पूर्वस्य तस्माद्वा एतस्मात् प्राणमयात् अन्योन्तर आत्मा मनोमयः तेनैष पूर्णः स वा एष पुरुषविध एव तस्य पुरुषविधताम् अन्वयम् पुरुषविदः तस्य यजुरेव शिरः ऋग्दक्षिणपक्षः सामोत्तरपक्षः आदेश आत्मा अथर्वाङ्गिरसपुच्छम् प्रतिष्ठा तदप्येष श्लोको भवति यतो वाचो निवर्तन्ते अप्राप्य मनसा सह आनन्दम् ब्रह्मणो विद्वान् न बिभेति कदाचनेति तस्यैष एव शारीर आत्मा यः पूर्वस्य तस्माद्वा एतस्मान्मनोमयात् अन्योन्तर आत्मा विज्ञानमयः तेनैष पूर्णः स वा एष पुरुषविध एव तस्य पुरुषविधताम् अन्वयम् पुरुषविधः तस्रश्रद्धैव शिरः ऋतम् दक्षिणपक्षः सत्यमुत्तरपक्षः योग आत्मा महःपुच्छम् प्रतिष्ठा तदप्येष श्लोको भवति विज्ञानम् यज्ञम् तनुते कर्माणि तनुतेऽपि च विज्ञानम् देवाः सर्वे ब्रह्मज्येष्ठमुपासते विज्ञानम् ब्रह्मचेद्वेदा तस्माच्चेन प्रमाद्यते शरीरे पाप्मनो हित्वा सर्वान् कामान् समश्नुत इति तस्यैष एव शारीर आत्मा यः पूर्वस्य तस्माद्वा एतस्माद्विज्ञानमयात् अन्योन्तर आत्मानन्दमयः तेनैष पूर्णः स वा एष पुरुषविध एव तस्य पुरुषविधताम् अन्वयम् पुरुषविधः तस्य प्रियमेव शिरः मोदो दक्षिणपक्षः प्रमोद उत्तरपक्षः आनन्द आत्मा ब्रह्मपुच्छम् प्रतिष्ठा तदप्येष श्लोको भवति असन्नेव स भवति असत्ब्रह्मेति वेद चेत् अस्तिब्रह्मेति चेत् वेद सन्तमेनं ततो विदुरिति तस्यैष एव शरीर आत्मा यः पूर्वस्य अथातोऽनु प्रश्नाः उत विद्वानमुं लोकं प्रेत्य कश्चन गच्छति आहो विद्वानमुं लोकं प्रेत्य कश्चित् समश्नुता सोकामयत बहुस्यां प्रजायेते सतपोतप्यता सतपस्तप्त्वा इदगुं सर्वमसृजत यदिदं किञ्च तत्सृष्ट्वा तदेवानुप्राविशत् तदनुप्रविश्य सत्यत्यच्चाभवत् निरुक्तं च निरुक्तं च निलयनं च निलयनं च विज्ञानं च विज्ञानं च सत्यं च नृतं च सत्यमभवत् यदिदं किञ्च तत्सत्यमित्याचक्षते तदप्येष श्लोको भवति असद्वा इदमग्र आसीत् ततो वै सदजायत तदात्मानग्रः स्वयमकुरुत तस्मात्तत्सुकृतमुच्यत इति यद्वै तत्सुकृतम् रसो वै सः रसगृह्येवालम् लब्ध्वानन्दे भवति को हेवान्यार्कप्राण्यात् यदेष आकाश आनन्दो न स्यात् एष ह्येवानन्दयाति यदा हे वैष एतस्मिन्न दृश्येनाप्ये निरुक्ते निलयने भयम् प्रतिष्ठाम् विन्दते अथ सो भयम् हतो भवति यदा हे वैष एतस्मिन्नुदरमन्तरम् कुरुते अथ तस्य भयम् भवति तत्त्वेव भयम् विदुषो मन्वानस्य तदप्येष श्लोको भवति भीषास्माद्वातः पवते भीषो देति सूर्यः भीषास्मादग्निश्चेन्द्रश्च मृत्युर्दावति पञ्चमयते शैषानन्दस्य मीमागुंसा भवति युवाच्चात् साधु युवाज्जायकः आशिष्ठो दृढिष्ठो बलिष्ठः तस्येयम् पृथिवी सर्वा वित्तस्य पूर्णा स्यात् स एको मानुष आनन्दः ते ये शतम् मानुषा आनन्दाः स एको मनुष्यगन्धर्वाणामानन्दः श्रोत्रियस्य चाकामः तस्य ते ये शतम् मनुष्यगन्धर्वाणामानन्दाः स एको देवगन्धर्वाणामानन्दः श्रोत्रियस्य चाकामः तस्य ते ये शतम् देवगन्धर्वाणामानन्दाः स एकः पितृणाम् चिरलोकलोकानामानन्दः श्रोत्रियस्य चाकामः तस्य ते ये शतम् पितृणाम् चिरलोकलोकानामानन्दाः स एकः आजानजानाम् देवानामानन्दः श्रोत्रियस्य चाकामः तस्य ते ये शतमाजानजानाम् देवानामानन्दाः स एकः कर्मदेवानाम् देवानामानन्दः ये कर्मणा देवानपि यन्ते श्रोत्रियस्य चाकामः तस्य ते ये शतम् कर्म देवानाम् देवानामानन्दाः स एको देवानामानन्दः श्रोत्रियस्य चाकामः तस्य ते ये शतम् देवानामानन्दाः स एक इन्द्रस्यानन्दः श्रोत्रियस्य चाकामः तस्य ते ये शतमिन्द्रस्यानन्दाः स एको बृहस्पतेरानन्दः श्रोत्रियस्य चाकामः तस्य ते ये शतम् बृहस्पतेरानन्दाः स एकः प्रजापतेरानन्दः श्रोत्रियस्य चाकामः तस्य ते ये शतम् प्रजापतेरानन्दाः स एको ब्रह्मण आनन्दः श्रोत्रियस्य चाकामः तस्य स यश्चायम् पुरुषे यश्चासावादित्ये स एकः स य एवं वित् अस्माल्लोकात् प्रेत्य एतमन्नमयमात्मानमुपसङ्क्रामते एतम् प्राणमयमात्मानमुपसङ्क्रामते एतम् मनोमयमात्मानमुपसङ्क्रामते एतम् विज्ञानमयमात्मानमुपसङ्क्रामते एतमानन्दमयमात्मानमुपसङ्क्रामते तदप्येष श्लोको भवति यतो वाचो निवर्तन्ते अप्राप्य मनसा सह आनन्दम् ब्रह्मणो विद्वान् न विवेति कुतश्च नेति एतगुम्हवावन तपति किमहगुम् साधुना करवम् किमहम् पापमकरवमिति स य एवम् विद्वानेदे आत्मानग्रः स्पृणुते उभे हे वैष एते आत्मानग्रः स्पृणुते य एवम् वेद यत्युपनिषत् सहनाववतु सहनौ भुनक्तु स वीर्यम् करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः राजाधिराजाय प्रसह्यसाहिने नमो वयम् वै श्रवणाय कुर्महे समे कामान् कामकामाय मह्यम् कामेश्वरो वै श्रवणो दधातु कुबेराय वै श्रवणाय महाराजाय नमः ॐ तद्ब्रह्मा ॐ तद्वायुः ॐ तदात्मा ॐ तत्सत्यम् ॐ तत्सर्वम् ॐ तत्पुरोर्नमः अन्तश्चरति भूतेषु गुहायाम् विश्वमूर्तिषु त्वम् यज्ञस्त्वम् वषट्कारस्त्वमिन्द्रस्त्वगुम् रुद्रस्त्वम् विष्णुस्त्वम् ब्रह्म त्वम् प्रजापतिः त्वम् तदाप आपोज्योतिरसोऽमृतम् ब्रह्मभूर्भुवः सुवरो स्वस्ति प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महिमहेशाः गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु ॐ शान्ति शान्ति